ओम नमो भगवते वासुदेवाय। अथैकत्रिंशोऽध्यायः। श्रीशुक उवाच। अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः। महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः। पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः। चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः। द्रष्टुगामा भगवतो निर्याणं परमोत्सुकाः। गायन्तस्य गृणन्तस्य शौरेः कर्माणि जन्म च। ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः। कुर्वन्तः सङ्कुलं राजन् भक्त्या परमयायुताः। भगवान् पितामहं वीक्ष्य विभूतिरात्मनो विभुः। संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत्। लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलं योगधारणयाज्ञैया दग्ध्वा धामा विषत्स्वकम्। दिविदुन्दुभयो नेतुः पेतुः सुमनसश्च खात्। सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानुतं ययुः। देवादयो ब्रह्म मुख्या न विशन्तं स्वधामनि। अविज्ञातगतिं कृष्णं ददृशुश्चाति विस्मिताः। सौदामन्या यथाकाशे यान्त्या हित्वा भ्रमण्डलं। गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः। ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः। विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययुस्तदा। राजन् परस्य तनुभृज्जननाप्ययेः मायाविडम्बनमवेहि यथा न तस्य। सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चात्ममहिमो परतः सास्ते। मर्त्येन यो गुरुसुतं यमलोकनीतं त्वां चानयच्छरणतः परमास्त्रदग्धम्। जिज्ञेन्तकान्तकमपि शमतावनीशः किं स्वावने स्वरनयन् मृगयुं स्वदेहम्। तथाप्यशेषस्थितिसम्भवाप्यये स्वनन्यहेतुर्यदशेषशक्तिधृक्। नैच्छत्प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थगतिं प्रदर्शयन्। य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम्। दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः पतित्वा चरणावस्त्रैर्न्यसिञ्चत् कृष्णविच्युतः। कथयामास निधनं वृष्णीनां कृत्स्नसो नृप। तच्छ्रुत्वोद्विग्नहृदया जना शोकविमूर्छिताः। तत्र स्मत्वरिता जग्मुः कृष्णविश्लेषविह्वलाः। व्यसवः शेरते यत्र ज्ञातयो घ्नन्ताननम्। देवकी रोहिणी चैव वसुदेवस्तथा सुतौ। कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम्। प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः। उपगूह्य पतींस्तात चिता मारुरुः स्त्रियः। रामपत्न्यश्च तद्देहमुपगुह्याग्निमाविशन्। वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरे स्नुषाः। कृष्णपत्न्यो विशन्नग्निं रुक्मिण्याद्याश्चदात्मिकाः। अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः। आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः। बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम्। हतानां कारयामास यथावदनुपूर्वशः। द्वारकां हरिणा त्यक्तां समुद्रोप्लावयत्क्षणात्। वर्जयित्वा महाराज श्रीमद्भगवदालयम्। नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः। स्मृत्या शेषा शुभहरम् सर्वमङ्गलमङ्गलम्। स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः। इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत्। श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः। त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम्। य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च। कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते। इत्थं हरेर्भगवतो रुचिरावतार। वीर्याणि बालचरितानि च सन्तमानि। अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत। इत्थं हरेर्भगवतो रुचिरावतार। वीर्याणि बालचरितानि च सन्तमानि। अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत। ओम स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामेकादशस्कन्धे एकत्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।